एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। संयुक्त राष्ट्रसंघस्य महासचिवः एन्टोनियो गुटेरेस निगदति द्वन्द्व व्यवस्थापने शान्ति प्रवर्धने च विश्वेन नेपालात् शिक्षितव्यम्। संघीय संसदः उभयोः रेव सदनयोः संयुक्तोपवेशम् गतदिने सम्बोधयन् महासचिवः गुटेरेस इतः पूर्वम् अष्टसप्तत्यधिकोनविंशतिशततमे ख्रीष्टवर्षे आत्मनः प्रथमवारम् नेपालागमनस्य क्षणम् संस्मरन् शान्ते संस्थापकस्य रूपेण आत्मना नेपालः परिचितो स्थिति अवासत। विश्वव्यापिना जलवायु परिवर्तनेन नेपाल सदृशेभ्यो विकासोन्मुख राष्ट्रेभ्य असमान प्रभाव श्रेष्ठा इति ब्रुवन् महासचिव गुटेरेस राष्ट्रसंघेन गतमहासभायां प्रस्ताविते पञ्चशताब्जानां डलर मुद्राणां परिमाणस्य दीर्घकालिक कोषे योगदान प्रदानार्थं विकसित राष्ट्राणि आह्वयत। नेपालस्य शान्ति प्रक्रियायां संयुक्त राष्ट्र संघेन सहयोगस्य अवसर प्राप्त इत्यालक्ष्य गर्व अनुभूत इति भाषमाण महासचिव गुटेरेस शान्ति सेनाया माध्यमेन नेपालेन विश्वस्मिन् विश्वे शान्ति स्थापनार्थं निरूह्यमानां भूमिकाम् उच्चैः प्राशंसत। संयुक्त राष्ट्र संघस्य महासचिव गुटेरेस शान्ति सेनायां त्यक्त प्राणानां नेपाली सैनिकानां स्मृतौ सम्भाषण मञ्चादेव मौन धारणं च समाचरत। संघीय संसदः संयुक्तोपवेशे सम्बोधनस्य क्रमे महासचिव गुटेरेस नेपालः स्वस्य कृते सदैव उत्कृष्ट गन्तव्यो वर्तते, अनेन देशेन लुम्बिनीतः शान्ते सन्देशश्च प्रसारितः इत्यभाषत। शान्तेः देशेन नेपालेन आत्मनः सहभागिता रहिते इजरायल हमास युद्धे निर्दोषाः नागरिकाः हापिताः इति कृत्वा दुःखम् अभिव्यज्यमानः महासचिवः गुटेरेस एतस्यां घटनायां विलुप्तस्य नेपाली विद्यार्थिनो विपिन जोशिनः सुरक्षितागमनाय संयुक्त राष्ट्रसंघः सक्रियो स्थिति प्रावोचत। लैंगिक समानताया क्षेत्रे नेपालस्य उपलब्धि उदाहरणीया वर्तते, अत्रत्या सांस्कृतिकी विविधता विश्वस्य कृते पठनीय विषयश्च स्थिति वर्णयन् महासचिव गुटेरेस नेपालात् आत्मना बहुशिक्षितुम् अवसरः लब्धः, नेपालस्य विपन्नताया विरूद्धे योद्धुम् संयुक्त राष्ट्रसंघः सदैव तत्परो स्थिति अकथयत। सम्बोधनस्य क्रमे महासचिव गुटेरेस नेपालस्य संस्कृत्या सभ्यतया आतिथ्येन च आत्मा मोहितः कारितः इत्यभाषत। अत्रान्तरे राष्ट्रसंघस्य महासचिवस्य गुटेरेस इत्यस्य गतदिने संघीय संसदः संयुक्तोपवेशे सम्बोधनस्य पश्चात् संचारकर्मिभिः सह विहितायां वार्तायां प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः नेपालस्य शान्ति प्रक्रियायाः निर्णयनाय संयुक्त राष्ट्रसंघात् सहयोगो भवतीति विश्वासम् अभिव्यनक। प्रधानमन्त्री प्रचण्डः अकथयत् नेपालस्य शान्ति प्रक्रियां प्रति अन्तर्राष्ट्रिय समुदायस्य महासचिवस्य गुटेरेस इत्यस्य च धारणा अनुकूल वर्तते। संघीय संसदः द्वयोरेव सदनयोः संयुक्तोपवेशेन संयुक्त राष्ट्रसंघस्य महासचिवस्य एन्टोनियो गुटेरेस इत्यस्य सम्बोधनं प्रति धन्यवाद प्रस्तावः पारितीकृतो वर्तते। संयुक्त राष्ट्रसंघस्य महासचिवः एन्टोनियो गुटेरेस जलवायु परिवर्तन विरोधिनी अभियाने ऐक्यबद्धतायाः ज्ञापनार्थम् अन्तर्राष्ट्रिय समुदायम् आह्वयति। अन्नपूर्णाधार शिविरस्य स्थलगतावलोकनात् प्रत्यावर्तनमनु ह्य पोखरायां पत्रकारै सह विते संक्षिप्ते साक्षात्कारे असौ जलवायु परिवर्तनस्य प्रभावात् नेपालोऽपि प्रभावितः सन्नपि जलवायु परिवर्तनस्य कारकतत्वानां सर्जने नेपाल सदृशानां देशानां योगदानम् नास्तीति प्रत्यपादयत्। विश्वव्यापी तापमानस्य वृद्धेः कारणेन हिमालय श्रृंखलायाः हिमम् प्रतिदिनं क्षीयमाणम् अस्तीति चर्चयन् महासचिवः गुटेरेस हिमद्रवणस्यैव कारणेन भूस्खलनेन जलविप्लवेन च मानव समुदाय क्षतिः प्राप्यमाणास्तीति अतर्कयत्। अत्रान्तरे संयुक्त राष्ट्रसंघस्य महासचिवम् एन्टोनियो गुटेरेस इत्यमुम् पूर्वेद्युः गौतम बुद्धस्य जन्मस्थले लुम्बिन्याम् अभ्यर्थयन् प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड देशस्य परिवर्तनाय रूपान्तरणाय च संघर्षस्य नेतृत्वकारिणो नेतुः रूपेण आत्मना शान्तेः द्वन्द्वस्य च मूल्यम् बुद्धम् अस्तीति अब्रवीत्। प्रधानमन्त्री प्रचण्ड आत्मनाम् शान्ति प्रक्रियायाः संक्रमणकालिक न्याय प्रणाल्याः अवशिष्टानाम् कार्याणाम् निर्णयनाय संलग्नता स्थिति चर्चयन् स्वस्य अन्तिमोद्देश्यं देशे सबल शान्तेः सद्भावस्य च सुनिश्चयनम् अस्तीति प्रत्यपादयत्। तदवसरे राष्ट्रसंघस्य महासचिव गुटेरेस बुद्ध जन्मस्थलात् लुम्बिनीतः आविश्वं शान्तेः सन्देशस्य प्रवाहावसरः लब्ध इति कृत्वा अतिशयं प्रसन्नता अनुभूतेति अभाषत। महासचिवः गुटेरेस विश्व सम्पद सूच्यां सूचीकृतस्य अशोकस्तम्भस्य परिसरे आयोजिते पत्रकार सम्मेलने आसंसारं जायमानस्य द्वन्द्वस्य अन्ताय लुम्बिनीतः आह्वयामीति अवोचत। बुद्ध जन्मस्थलं लुम्बिनीम् आगमनावसरो लब्ध इति समालक्ष्य हर्षं प्रकटयन् असौ इजरायल प्यालेस्टाइन युक्रेन सुडान प्रवृत्ति देशेषु जायमानं द्वन्द्वम् अन्तयितुमपि आह्वयत्। ह्य एव संयुक्त राष्ट्रसंघस्य महासचिवस्य एन्टोनियो गुटेरेस इत्यस्य राष्ट्रियसभायाः अध्यक्षस्य गणेश प्रसाद तिमलसिनाविधस्य च मध्ये सीमप्रासादवर्तिनी संघीय संसद सचिवालय स्थिते राष्ट्रियसभायाः अध्यक्षस्य कार्यकक्षे मेलवार्ता अभवत्। तदनन्तरं महासचिवः गुटेरेस उपप्रधान गृहमन्त्रिणा नारायणकाली श्रेष्ठेन सहापि मेलनं व्यदधात्। नेपालस्य चतुर्दिवसीयम् औपचारिक भ्रमणं प्रपूर्य महासचिवः गुटेरेस अद्य प्रतिष्ठते। राष्ट्रिय सभया राष्ट्रिय मर्यादा सम्बद्धम् एतद् विक्रम वर्षीयम् विधेयकम् पारितकृतम् वर्तते। राष्ट्रिय सभाया ह्यस्तनोपवेशे सांसदेन प्रकाश पन्थेन राष्ट्रिय मर्यादा सम्बद्धम् विधेयकमिदम् पारितक्रियतामिति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या पारितकृतो वर्तते। ह्यः राष्ट्रिय सभायाम् त्रयाणाम् आयोगानाम् त्रीणि प्रतिवेदनानि अपि प्रस्तुतानि वर्तन्ते। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य पक्षतः संचार सूचना प्रविधि मन्त्रिणा रेखा शर्मणा निर्वाचन आयोग नेपालस्य षोडशं गतार्थिक वर्षीयम् वार्षिकं प्रतिवेदनं राष्ट्रिय दलितायोगस्य तृतीयं वार्षिकं प्रतिवेदनं अधिकार दुरूपयोगानुसन्धानायोगस्य त्रयस्त्रिंशं वार्षिकं प्रतिवेदनं च प्रस्तुतानि सन्ति। उपवेशेन शिक्षा विज्ञान प्रविधि मन्त्रिणा अशोक कुमार राई इत्यनेन एतद् विक्रम वर्षीयं शहीद दशरथ चन्द स्वास्थ्य विज्ञान विश्वविद्यालय विधेयकं प्रकरणगत विमर्शनाय विधायन व्यवस्थापन समितौ प्रेष्यतामिति निगद्य प्रस्तुत प्रस्ताव उपवेशेन सर्वसम्मत्या स्वीकृतो वर्तते। उपवेशस्य शून्य समये सांसदाः पृथ्वीराज मार्गादि राष्ट्रिय राजमार्गाणां सम्भाराय अयाचन्त। राष्ट्रिय सभायाः अपरोपवेशः स्व कार्तिकस्य षोडशे दिवसे बृहस्पतिवासरे अपराह्नस्य एकवादने वस्ता। प्रतिनिधि सभाया कृषि सहकारी प्राकृतिक स्रोत समितेः ह्यस्तनोपवेशे मत्स्य दुग्ध मल शर्कराणां विक्रय वितरणयोः विद्यमानानां समस्यानां सम्बन्धे विमृष्टमस्ति। समितेः सिंहप्रासादे उपविष्टे उपवेशे सांसदाः आपणे शर्कराभावस्य अवस्थां दुरुपयुज्य व्यवसायिभिः अधिकं मूल्यं गृहीत्वा सर्वसाधारणजनाः प्रवञ्च्यमानाः सन्ति तथा तत्कालं दोषिणो दण्डयितुं सर्वकारम् अयाचन्त। इति समाचारः।